ओम नमो भगवते वासुदेवाय। अथ षट्पञ्चाशत्तमोऽध्यायः। श्रीशुक उवाच, सत्राजित स्वतनयाम् कृष्णाय कृतकिल्बिषः, श्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान्। राजोवाच, सत्राजितः किमकरोत् ब्रह्मन् कृष्णस्य किल्बिषम्? श्यमन्तकः कुतस्तस्य, कस्माद्दत्ता सुता हरेः? श्रीशुक उवाच, आसीत् सत्राजितः सूर्यो भक्तस्य परमः सखा, प्रीतस्तस्मै मणिम् प्रादात्। सूर्यस्तुष्टः स्यमन्तकम्, सतम् बिभ्रन् मणिम् कण्ठे भ्राजमानो यथा रविः। प्रविष्टो द्वारकाम् राजन्स्तेजसा नोपलक्षितः, तम् विलोक्य जना दूरात् तेजसा मुष्टदृष्टयः। दिव्यते क्षैर्भगवते ससंसु सूर्यसङ्किताः, नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर दामोदरारविन्दाक्ष गोविन्द यदुनन्दन। एष आयाति सविता त्वाम् दिदृक्षुर्जगत्पते, मुष्णन् गवस्थिचक्रेण नृणाम् चक्षूंसि तिग्मगुः। नन्वन्विच्छन्ति ते मार्गम् त्रिलोक्याम् विबुधर्षभाः, ज्ञात्वाद्य गूढम् यदुषु द्रष्टुम् त्वाम् यात्यजः प्रभो। श्रीशुक उवाच, निशम्य बालवचनम् प्रहस्याम्बुजलोचनः, प्राहनासौरविर्देवः सत्राजिन्मणिना ज्वलन्। सत्राजित् स्वगृहम् श्रीमत् कृतकौतुकमङ्गलम्, प्रविश्य देव सदने मणिम् विप्रैर्न्यवेशयत्। दिने दिने स्वर्णभारा नष्टौ स सृजति प्रभो, दुर्भिक्षमार्यरिष्टानि सर्पाधिव्याधयो शुभाः, न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणिः। स याचितो मणिम् क्वापि यदुराजाय शौरिणा, नैवार्थकामुकः प्रादात् याच्याभङ्गमतर्कयन्। तमेकदा मणिम् कण्ठे प्रतिमुच्य महाप्रभम्, प्रसेनो हयमारुह्य मृगयाम् व्यचरद्वने। प्रसेनम् स हयम् हत्वा मणिमाच्छिद्य केसरी, गिरिम् विषञ्जाम्बवता निहतो मणिमिच्छता। सोऽपि चक्रे कुमारस्य मणिम् क्रीडनकम्बिले, अपश्यन् भ्रातरम् भ्राता सत्राजित्पर्यतप्यत। प्रायः कृष्णेन निहतो मणिग्रीवो वनङ्गतः, भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णे च पञ्जनाः। भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि, मार्ष्टुम् प्रसेन पदवीमन्वपद्यत नागरैः। हतम् प्रसेनमश्वम् च वीक्ष्य केसरिणा वने, तम् चाद्रिपृष्ठे निहतमृक्षेण तदृशुर्जनाः। ऋक्षराजबिलम् भीममन्धेन तमसावृतम्, एको विवेश भगवानवस्थाप्य बहिः प्रजाः। तत्र दृष्ट्वा मणिश्रेष्ठम् बालक्रीडनकम् कृतम्, हर्तुम् कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके। तमपूर्वम् नरम् दृष्ट्वा धात्री चुक्रोशभीतवत्, तच्छ्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनाम् वरः। स वै भगवता तेन युयुधे स्वामिनात्मनः, पुरुषम् प्राकृतम् मत्वा कुपितो नानुभाववित्। द्वन्द्वयुद्धम् सुतुमुलमुभयोर्विजिगीषतोः, आयुधाश्मद्रुमैर्दोर्भिः क्रव्यार्थे सेनयोरिव। आसीत्तदष्टाविंशाः मितरेतरमुष्टिभिः, वज्रनिष्पेशपरुषैरविश्रममहर्निशम्। कृष्णमुष्टिविनिष्पात निष्पिष्टाङ्गोरुबन्धनः, क्षीणसत्त्वस्विन्नगात्रस्तमाहातीव विस्मितः। जाने त्वाम् सर्वभूतानाम् प्राण ओजः सहोबलम्, विष्णुम् पुराणपुरुषम् प्रभविष्णुमधीश्वरम्। त्वम् हि विश्वसृजाम् स्रष्टा सृज्यानामपि यच्च सत्, कालः कलयतामीश पर आत्मा तथात्मनाम्। यस्येष दुत्कलितरोषकटाक्षमोक्षैर्वर्त्मादिषत्क्षुभितनकृतिमिङ्गिलोब्धिः, सेतुः कृतः स्वयश उज्ज्वलिताचलङ्का, रक्ष शिरांसि भुवि पेतुरिषु क्षतानि। इति विज्ञात विज्ञानमृक्षराजानमच्युतः, व्याजहार महाराज भगवान् देवकीसुतः। अभिमृष्यारविन्दाक्षः पाणिना शङ्करेण तम्, कृपया परया भक्तम् प्रेमगम्भीरया गिरा, मणिहेतोरिह प्राप्ता वयम् ऋक्षपते बिलम्, मिथ्याभिशापम् प्रमृजन्नात्मनो मणिना मुना। इत्युक्तः स्वाम् दुहितरम् कन्याम् जाम्बवतीम् मुदा, अर्हणार्थम् स मणिना कृष्णायोपजहारः। अदृष्ट्वा निर्गमम् शौरेः प्रविष्टस्य बिलम् जनाः, प्रतीक्ष द्वादशाहानि दुःखिताः स्वपुरम् ययुः। निशम्य देवकी देवी रुक्मिणीया नकदुन्दुभिः सुहृदो ज्ञातयो शोचन् बिलात् कृष्णमनिर्गतम् सत्राजितम् शपन्तस्ते दुःखिता द्वारकौकसः उपतस्थुर्महामायाम् दुर्गाम् कृष्णोपलब्धये तेषाम् तु देव्युपस्थानात् प्रत्यादिष्टा शिशा स च प्रादुर्बभूव सिद्धार्थः सदारो हर्षयन् हरिः उपलभ्य ऋषिकेशम् मृतम् पुनरिवागतम् सह पत्न्या मणिग्रीवम् सर्वे जातमहोत्सवाः सत्राजितम् समाहूय सभायाम् राजसन्निधौ प्राप्तिम् चाख्याय भगवान् मणिम् तस्मै न्यवेदयत् स चातिव्रीडितो रत्नम् गृहीत्वा वाङ्मुखस्ततः अनुतप्यमानो भवनमगमत् स्वेन पाप्मना सोऽनुध्यायंस्तदेवाघम् बलवद्विग्रहाकुलः कथम् मृजाम्यात्मरजः प्रसीदेद्वाच्युतः कथम् किम् कृत्वा साधु मह्यम् स्यान्न शपेद्वा जनो यथा अदीर्घदर्शनम् क्षुद्रम् मूढम् द्रविणलोलुपम् दास्ये दुहितरम् तस्मै स्त्रीरत्नम् रत्नमेव च उपायोऽयम् समीचीनस्तस्य शान्तिर्न चान्यथा एवम् व्यवसितो बुद्ध्या सत्राजित् स्वसुताम् शुभाम् मणिम् च स्वयमुद्यम्य कृष्णायोपजहारः ताम् सत्यभामाम् भगवानुपयेमे यथाविधि बहुभिर्याचिताम् शीलरूपौदार्यगुणान्विताम् भगवानाह न मणिम् प्रतीच्छामो वयम् नृप तवास्ताम् देवभक्तस्य वयम् च फलभागिनः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे श्यमन्तकोपाख्याने षट्पञ्चाशत्तमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।